एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रतिनिधि सभया एतद् विक्रम वर्षीयं सुरक्षित व्यवसाय प्रथम संशोधन विधेयकं पारितीकृतमस्ति। उप प्रधानार्थ मन्त्रिणा विष्णु प्रसाद पौडेलेन ह्य विधेयकमिदं पारितीकर्तुं प्रस्ताव प्रस्तुत आसीत्। तत्पूर्वं विधेयकमाधृत्य विहिते विमर्शने सांसदे उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री पौडेल न्यासरूपेण स्थापिताया सम्पद विक्रयणं तत्सम्बद्धा लाभव्यवस्था च विधेयके उल्लिखिते स्त इति असूचयत्। उपवेशे सांसदः आर्थिकापराधं नियन्तुं व्यवसायं द्रुततरं विधातुं च विधेयकमिदं महत्वपूर्णं भवतीत्यतः क्रियान्वयने बलं प्रादुः। उपवेशे वनवातावरणमन्त्री ऐनबहादुरशाही ठकुरी दावानलस्य घटनानां नियन्त्रणाय सर्वकारेण जनचेतनामूलकाः कार्यक्रमाः क्रियान्वयने आनेष्यन्ते इति उदैरयत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशस्य आकस्मिक समये सांसदाः सामयिक विषयेष् धारणाम् उपस्थापयन्तः। प्रतिनिधिसभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ प्राकृतिक स्रोत वित्तायोगस्य वार्षिकं प्रतिवेदनं प्रस्तोत। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। राष्ट्रियसभायाः ह्यस्तनोपवेशेन गतविक्रमवर्षीयं मीडिया काउन्सिल विधेयकं पारितीकृतमस्ति। उपवेशे संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन विधेयकमिदं पारितीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः सभया सर्वसम्मत्या पारितीकृतोऽस्ति। उपवेशे राष्ट्रियसभायाः सचिवः डॉ सुरेन्द्र अर्यालः राष्ट्रियसभातः पारितीकृत्य ससन्देशं प्रतिनिधिसभायां प्रेषितस्य गतविक्रमवर्षीयस्य विधायेन सम्बद्ध विधेयकस्य विषये प्रतिनिधिसभातः प्राप्तं सन्देशं सभासमक्षं विज्ञाप्य पञ्जीकारितवान्। तत्पूर्वं राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदाः सामयिक विषयेष् सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रियसभायाः अपरोपवेशः आगामिनः फाल्गुनमासस्य चतुर्थे दिवसे रविवासरे दिवा सपादैकवादने वस्ता। राष्ट्रपतिः रामचन्द्र पौडेलः कस्यापि प्रभावे निपतनेन विनैव अधिकार दुरुपयोगानुसन्धानायोगेन भ्रष्टाचाराणाम् अनुसन्धानं करिष्यते इति विश्वासं विनक्ति। आयोगस्य चतुस्त्रिंशत्तम स्थापना दिवसस्य अवसरे पूर्वेद्युः काष्ठमण्डपे आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः भ्रष्टाचारस्य प्रकृतौ स्वरूपे च परिवर्तनं जायमानमस्तीति अवस्थायाम् अनुसन्धानम् अभियोजन प्रक्रिया आधुनिकी कर्तव्य इति उदैरयत्। राष्ट्रपतिः पौडेलः सत्तायाः शक्तेः धनप्राप्तेः अभिप्सायाश्च कारणेन प्रक्रियायाः पद्धतेः प्रणाल्याश्च दुरुपयोगं कृत्वा जनाः भ्रष्टाचारं प्रति उन्मुखाः सन्तीत्यतः अत्र सावधानताम् अवलम्बितुम् आयोगम् अनुरुणत्। कार्यक्रमे आयोगस्य प्रमुखायुक्तः प्रेमकुमार राई भ्रष्टाचारस्य नियन्त्रणस्य कार्यं प्रभावकारी सम्पादयितुं समेषां सहयोगस्य आवश्यकता भवतीति प्रावोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः सर्वकारेण आनीतः अध्यादेशः राष्ट्रियसभातः पारितीकरिष्यन्ते न वेति आशंकां विनक्ति। जनकपुर विमानस्थले ह्यः पत्रकारैस्सह भाषमाणः अध्यक्षः प्रचण्डः संसदः उपवेशनात् षड्भ्यो दिनेभ्यो पूर्वं सर्वकारेण अध्यादेशान् क्रियान्वय अनुचित मार्गः अवलम्बितः इति आरोपयत्। ह्य एव महोत्तरी जनपदस्य वर्दिवासवर्तिन्या आधारशिला नाम्न्याः संस्थायाः द्वाविंशे वार्षिकोत्सव कार्यक्रमे अध्यक्षः प्रचण्डः अतः परं सुशासनाय समृद्धये सामाजिक न्यायाय च समर्पणस्य समयः आगतोऽस्तीति अवोचत्। गृहमन्त्री रमेश लेखकः सत्ता गठबन्धनयोः नेकपा एमाले नेपाली कांग्रेस दलयोर्मध्ये कापि समस्या नास्तीति स्पष्टयति। कैलाली जनपदस्य धनगढ़ी नगरे ह्य आयोजिते पत्रकार सम्मेलने गृहमन्त्री लेखकः सर्वकारेण अर्थतन्त्रस्य सुधाराय सुशासनाय च कार्यं विहितमस्तीति अवदत्। गृहमन्त्री लेखकः सर्वकारीयेतर संस्थाभिः विधीयमानं व्ययं राष्ट्रिय वित्त प्रणाल्यां समावेष्टुं सर्वकारेण अध्ययनं प्रारब्धमस्ति। एतदर्थम् अन्तर्गतेभ्यः निकायेभ्यः परिपत्रं च विहितं वर्तते इति अभाषत। गृहमन्त्री रमेश लेखकः पाथिभरा केवलकारयान निर्माण सम्बद्ध विषये उत्पन्न समस्या वार्तायाः सहमतिश्च माध्यमेनैव समाधातव्येति बलं ददाति। ह्यः सायं गृहमन्त्रालये उक्त विवादस्य समाधानाय संघटितेन आन्दोलनरत पक्षस्य वार्ता समूहेन सम्बद्ध पक्षेण च मेलनस्य क्रमे गृहमन्त्री लेखकः पारस्परिक सहमत्या एव समस्यायाः समाधानं कर्तुं शक्यते इत्यतः सर्वै गभीरैर्भाव्यम् इत्यत्र बलं प्रादात्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति सांसदानां मन्त्रिणां कर्मचारिणां च संख्यां न्यूनीकर्तुं संविधान संशोधनं विधेयम्। जीपी कोइराला फाउण्डेशन इति संस्थया ह्य भक्तपुरे आयोजितायां विचारगोष्ठ्यां स्वास्थ्य मन्त्री पौडेलः साम्प्रतिकीं व्यवस्थां इतोऽपि दृढयितुं संविधान संशोधनं विधातव्यम् इति अगदत्। काष्ठमण्डपस्य बुढानीलकण्ठ नगरपालिकायाः तृतीय वडा क्षेत्रस्य एकस्मिन् गृहे ऑनलाइन सञ्जालस्य माध्यमेन द्यूतक्रीडायाः सञ्चालनस्य आरोपे त्रयोविंशतिः भारतीय नागरिकाः प्रहरिणा निगृहीताः सन्ति। काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रवक्ता प्रहरी उपरीक्षकः अपिलराज बोहरा रविवासरस्य रात्रितः सोमवासरस्य प्रातः कालं यावत् विहिते अनुसन्धाने त्रयोविंशतिं जनान् निगृह्य तेषां पार्श्वे विद्यमानानि 88 चलदूरभाषणयन्त्राणि 10 सुसांख्ययन्त्राणि 81,000 रूप्यकाणि च संगृहीतानि सन्तीति असूचयत्। राष्ट्रिय प्रजातन्त्र दिवसं भव्यतया आयोजयितुं संचार सूचना प्रविधि मन्त्रालय सम्बद्धेन निकायेन विधीयमानः कार्यक्रमः दायित्वञ्च निर्धारिते स्तः। संचार मन्त्रालयस्य सचिवस्य राधिका अर्यालयस्य संयोजकत्वे ह्य उपविष्टायाः प्रचार प्रसारोपसमितेः उपवेशेन एतत् विक्रमवर्षीयं प्रजातन्त्र दिवसं भव्यतया सम्पादयितुं मन्त्रालयस्य अन्तर्गतानां निकायानां दायित्वं निर्धारितमस्ति। बागलुंग जनपदस्य इमेज बचत ऋण सहकारी संस्थायाः वित्त संचय कर्तृभिः पीडितजनैः पारस्परिक मेलनस्य आधारेण क्रमशः वित्तं प्राप्यमाणं वर्तते। संस्थायाः संस्थापकाध्यक्षं देवकुमार नेपाली इत्यमुं विपक्षिणं कृत्वा प्रदत्त निवेदकेषु 47.5 जनेषु संचयकर्तृषु मेलनस्य पश्चात् वित्त प्रत्यावर्तनस्य कार्यं प्रारब्धमस्ति। विश्वस्य विपुलार्थतन्त्रद्वये व्यापारयुद्धं वर्धमानमस्ति। अत्र क्रमे अमेरिका देशीय राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन अतिरिक्त देशेभ्यः अपि करव्यवस्थायाः प्रत्यादेशनस्य पश्चात् चीनदेशेन कतिश्चिद् अमेरिका देशीय सामग्रीषु आयातकरः निर्धारितो वर्तते।